लक्ष्मीविलास नरसिंह गुणाकरेश वैकुंठ केशव जनार्दन चक्रपाणि भक्तार्तिनाशन हरे मधुकैटभारे भूयात् बदर्यधिपते तव सुप्रभातम्। लक्ष्मीः प्रसन्नवदना जगदाद्यशक्तिः कृत्वाङ्गरागललितं सुमनोज्ञवेशा संस्तोति शब्दमधुरैर्मुरमर्दनं त्वा भूयात् बदर्यधिपते तव सुप्रभातम्। ब्रह्मा महेश गुरुकाव्य सरस्वती च संप्राप्य तुङ्गहिमशृङ्गमये प्रदेशे संसेवयन्ति हि पदाम्बुजयुग्मकं ते भूयात् बदर्यधिपते तव सुप्रभातम्। इन्द्रादयः सुरगणांश विमानदिव्यैः प्राप्ताः पराञ्जलिपुटा भवदन्तिकैः उद्घोषयन्ति सततं जगदेकनाथं भूयात् बदर्यधिपते तव सुप्रभातम्। सूर्यादयो ग्रहगणा नभस्थले च दस्रादितारकगणैः सहितासु नम्राः मन्दारचम्पककरा बहुपुष्पयुक्ताः द्रष्टुं बदर्यधिपते तव सुप्रभातम्। देवर्षि नारद सनन्दन योगिवर्याः सप्तर्षयो भृगुमरीचि वसिष्ठमुक्ताः द्वारे पठन्ति शुभवेद सुरम्यगाथां भूयात् बदर्यधिपते तव सुप्रभातम्। रम्भादयोऽप्सरगणाः सह नृत्यगीतैः गन्धर्वतुम्बुरुमुखाः सह वाद्यघोषैः गायन्ति गीतसरसैरिह कीर्तिपुञ्जम् भूयात् बदर्यधिपते तव सुप्रभातम्। श्रीशङ्करार्यमुनिमध्वमहायतीन्द्राः रामानुजार्यप्रभुवल्लभदेशिकेन्द्राः गाथाविरच्य निगमागमतत्त्वसाराः नित्यं जगुस्तव यशो विमलं प्रभातम्। भास्वानुदेति विगता हिमशीतबाधा स्नात्वा च वह्निसलिले खलु यात्रिणो हि नीतोपचारनिचयाः प्रभुदर्शनार्थं तिष्ठन्ति चत्वरमुखे तव सुप्रभातम्। हेमेषु राजतमयेषु भटेषु नीत्वा शीतोष्णतोयदधिदुग्धघृतादिकं च स्नानोन्मुखाद्विजवराः सह वेदपाठैः भूयात् बदर्यधिपते तव सुप्रभातम्। पञ्चामृतेन सलिलेन सुगन्धद्रव्यैः अभ्यङ्गनादिसुमनोहर संभृतैश्च सिञ्चन्ति चार्चकवराः स्तुतिभिर्मनोज्ञैः भूयात् बदर्यधिपते तव सुप्रभातम्। श्रीखण्डचन्दनसुगन्धयुजाविलिप्य कौशेयरत्नखचितैश्च सुकान्तिमद्भिः वस्त्रैर्वराभरणपुष्पचयैर्भवन्तम् आभूषयन्ति सततं तव सुप्रभातम्। भोजानि षड्रसमयानि विधाय सुदाः दध्योदनादिकृतपायसमिश्रितानि नित्यं प्रफुल्लमनसा विनिवेदयन्ति तुभ्यं बदर्यधिपते तव सुप्रभातम्। जाम्बूनदीय बहुमूल्यमयं सुपात्रम् आपूर्य मिश्रितघृतेन च वर्तिकाभिः नीराजनेन सह वाद्यमृदङ्गघोषैः सन्तर्पयन्ति विबुधास्तव सुप्रभातम्। दैत्यं सहस्रकवचं वरदानमत्तम् उन्मूलितुं सुरगणा बहुधार्थयन्तः नारायणो नरसखो वततार भूमौ संहत्य दानवपतिं विदधे प्रभातम् संसार सागर समुत्तरणैकहेतोः अष्टाक्षरं सकल सिद्धिकरं सुमंत्रं आविश्चकार जगदभ्युदयस्य सिद्धै क्षेमाय मानवगुणस्य हि सुप्रभातम् यो वै हरिः कृतयुगे बदरीवनेऽस्मिन् तेपे तपो बहुजनस्य हिताय कृच्छ्रम् श्री श्री निवास जगदेक दयैक सिंधुः पुर्या जनस्य सकलस्य सुप्रभातम् इत्थं प्रभुं नरहरिं करुणाभिसेतुं लक्ष्मीपतिं सुरगुरुं प्रणिपत्य मूर्ध्ना याचे मुदा द्विजवरो मुरलीधराख्यो भद्रं करोतु सततं बदरी विशालः भद्रं करोतु सततं बदरी विशालः। यस्य स्मरणमात्रेण जन्म संसार बंधना विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे नमः समस्त भूतानां आदिभूताय भूभृते अनेक रूप रूपाय विष्णवे प्रभ विष्णवे वैशंपायन उवाच श्रुत्वा धर्मान शेषेण पावनानि च सर्वशः युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषतः युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणं स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाशुभम् को धर्मः सर्वधर्माणां भवतः परमो मतः किं जपन्मुच्यते जन्तुर्जन्म संसारबन्धना भीष्म उवाच जगत्प्रभुं देवदेवं अनन्तं पुरुषोत्तमं स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ध्यायन् स्तुवन् नमस्यंश यजमानस्तमेव च अनादिनिधनं विष्णुं सर्वलोकमहेश्वरं लोकाध्यक्षं सुवन्नित्यं सर्वदुःखातिगो भवे ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनं लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चयन्नरः सदा परमं यो महत्तेजः परमं यो महत्तपः परमं यो महद्ब्रह्म परमं यः परायणम् पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् दैवतं देवतानां च भूतानां यो व्ययः पिता यतः सर्वाणि भूतानि भवन्त्यादि युगागमे यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये तस्य लोकप्रधानस्य जगन्नाथस्य भूपते विष्णोर्नाम सहस्रं मे शृणु पापभयापहम् यानि नामानि गौणानि विख्यातानि महात्मनः ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं। ॐ विश्वस्मै नमः। ॐ विश्वं विष्णुर्वषट्कारो भूतभव्य भवत्प्रभु भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञो क्षर एव च योगो योगविदां नीता प्रधानपुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः सर्वशिवस्थाणु भूतादिर्निधिरव्ययः संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः स्वयंभू शंभुरादित्य पुष्कराक्षो महास्वनः अनादिनिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेशः पद्मनाभो मरप्रभुः विश्वकर्मा मनुस्त्वष्टा हविष्टः सविरो ध्रुवः अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् सुरेशः शरणं शर्म विश्वरेता प्रजाभवः अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमनः सत्यः समात्मा सम्मितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः सर्वगः सर्वविद्भानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविक्कवि लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहः चतुर्दंष्टश्चतुर्भुजः राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनुभो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः अतीन्द्रः संग्रहः सर्वो धृतात्मा नियमो यमः वेद्यो वेद्यः सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देशवपुः श्रीमान् अमेयात्मा महादृधृक् महीश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्ध सुरानन्दो गोविन्दो गोविदाम्पतिः मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः हिरण्यनाभ सुतपाः पद्मनाभ प्रजापतिः अमृत्युः सर्वदृक्सिंह सन्धाता सन्धिमान् स्थिरः अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषस्रग्वी वाचस्पतिरुदारधीः अग्रणीर्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपा आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहः संवर्तको वह्निः अनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वधृक् विश्वभुग् विभुः तत्कर्ता सत्कृतः साधुर् जह्नुर्नारायणो नरः असंख्येयो प्रमेयात्मा विशिष्टः शिष्टकृत् शुचिः सिद्धार्थः सिद्धसंकल्प सिद्धिदः सिद्धिसाधनः वृषाही वृषभो विष्णुः विषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः। सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः नैकरूपो बृहद्रूपः पिपिविष्टः प्रकाशनः ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः रुद्रः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशुद्भवो भानुः शशबिन्दुः सुरेश्वरः औषधं जगतस्तेतु सत्यधर्मपराक्रमः भूतभव्यभवन्नाथ पवनः पावनो नलः कामः कामकृत्कान्तः कामः कामप्रदः प्रभुः। युगादिकृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रचिदनन्तजित् इष्टो विशिष्टः इष्टेष्ट शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतः प्रतितः प्राण प्राणदो वासवानुजः अपां निधरधिष्ठानम् अप्रमत्त प्रतिष्ठितः स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुः आदिदेवः पुरन्दरः। अशोकः कारणस्तारः शूरशौरिर्जनीश्वरः अनुकूलः कथावर्तः पद्मी पद्मनिभेक्षणः पद्मनाभोरविन्दाक्षः पद्मगर्भः शरीरभृत् महर्धिर्वृत्तो वृत्तात्मा महाक्षो गरुडध्वजः अतुलशरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः विक्षरो रोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवानमिताशनः। उद्भव शोभणो देव श्रीगर्भ परमेश्वरः करणं कारणं कर्ता विकर्ता गहनो गुह व्यवसायो व्यवस्थान संस्थानः स्थानदो ध्रुवः परर्धि परमस्पष्ट तुष्ट पुष्ट सुभेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठ पुरुषः प्राणः प्राणदा प्रणवः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुर्धोक्षजः। ऋतुः सुदर्शनः काल परमेष्ठी परिग्रह उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्थावरस्थाणु प्रमाणं बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्तविष्टो भूर्धर्मयूपो महामखः नक्षत्रनेमिर्नक्षत्री क्षमः क्षाम समीहनः यज्ञ ईच्यो महीजश्च क्रतुः सत्रं सतां गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्। सुव्रतः सुमुखः सूक्ष्म सुघोषः सुखदस्तुहृत् मनोहरो जितक्रोधो वीरबाहुर्विदारणः स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सि रत्नगर्भो धनीश्वरः धर्मगुप्धर्मकृत् धर्मी सदसक्षरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्तिनेमि सत्त्वस्थ सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्य पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः सोमपो मृतपः सोम पुरुचित् पुरुषस्तमः विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधिरनन्तात्मा महोदधिशयोऽन्तकः अजो महार्हः स्वाभाव्यो जितामित्र प्रमोदनः आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः महर्षि कपिलाचार्य कृतज्ञो मेदिनीपति त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गकृतान्तकृत् महावराहो गोविन्द सुषेण कनकाङ्गदि गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः वेधाः स्वाङ्गोचितकृष्णो दृढसङ्कर्षणुच्युतः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगहानन्दी वनमाली हलायुध आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः सुधन्वाखण्डपरशुर्दारुणो द्रविणः प्रदः दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः त्रिसामासामगः सामो निर्वाणं भेषजं भिषक् सन्न्यासकृच्छमः शान्तो निष्ठाशान्तिपरायणः शुभाङ्गः शान्तिदस्रष्टा कुमुदः कुवलेशयः गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ते निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवासः श्रीपति श्रीमताम्बरः श्रीद श्रीश श्रीनिवास श्रीनिधि श्रीविभावनः श्रीधर श्रीकर श्रेय श्रीमाल्लोकत्रयाश्रयः स्वक्षस्वङ्ग शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्न संशयः उदीर्णः सर्वतश्चक्षुः अनीशः शाश्वतस्थिरः भूषयो भूषणो भूतिर्विशोकः शोकनाशनः अर्चिष्मान् अर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथः प्रद्युम्नो मितविक्रमः काननेमिनिहावीरः शौरिशूरजनीश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः कामदेवः कामपालः कामीकान्तकृतागमः अनिर्देशवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्मब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मण प्रियः। महाक्रमो महाकर्मा महातेजा महोरगः। महाक्रतुर्महायज्ज्वा महायज्ञो महाहविः। स्तव्यस्तव्यप्रियस्तोत्रं स्तुतिस्तोतारणप्रियः। पूर्णपूरयिता पुण्यकीर्तिरनामयः। मनोजवस्तीर्थकरो वसुरेता वसुप्रदः। वसुप्रदो वासुदेवो वसुर्वसुमनाहविः। सद्गति सत्कृति सत्ता सद्भूति सत्परायणः। शूरसेनो यदुश्रेष्ठः सन्निवास सुयामुनः। भूतावासो वासुदेव सर्वासुन्निलयो नलः। दर्पः दर्पदो दृप्तो दुर्धरोथा पराजितः। विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमा। अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः। एको नैकः सवः किं यत्तत्पदमनुत्तमम्। लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः। सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी। वीरः विषमशून्यो धृताशीरचलश्चल। अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्। सुमेधा मेधजो धन्य सत्यमेधा धराधरः। तेजो वृषोद्युतधरः सर्वशस्त्रभृताम्बरः। प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः। चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति। चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपा। समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः। दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा। शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः। इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः। उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः। अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी। सुवर्णबिन्दुरक्षोभ्य सर्ववागीश्वरेश्वरः। महारथो महागर्तो महाभूतो महानिधिः। कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो निलः। अमृतांशो मृतवपुः सर्वज्ञः सर्वतोमुखः। सुलभः सुव्रतः सिद्धः शत्रुचिच्छत्रुतापनः। न्यग्रोधो दुम्बरोऽश्वत्थः चाणूरान्ध्रनिषूदनः। सहस्रार्चि सप्तजिह्वा सप्तैधा सप्तवाहनः। अमूर्तिरनभो चिन्त्यो भयकृद्भयनाशनः। अणुर्बृहत् कृशः स्थूलो गुणभृद्निर्गुणो महा। अद्वितस्वद्वितस्वास्य प्राग्वंशो वंशवर्धनः। भारभृत्कथितो योगी योगीशः सर्वकामदः। आश्रमश्रमणः कामः सुपर्णो वायुवाहनः। धनुर्धरो धनुर्वेदो दण्डो दमयितादमः। अपराजितः सर्वसहो नियन्ता नियमो यमः। सत्त्ववान् सात्विकः सत्य सत्यधर्मपरायणः अभिप्राय प्रियार्होरः प्रियकृत् प्रीतिवर्धनः विहाय सगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः रविर्विरोचनः सूर्यः कवितारविलोचनः अनन्तो हुतभुग्भोक्ता सुखदो नैकजोग्रजः अनिर्विण्णः सदामर्षि लोकाधिष्ठानमद्भुतः सनात् सनातनतमः कपिलः कपिरव्ययः स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्ति भुः स्वस्ति दक्षिणः अरौद्रः कुण्डली चक्री विक्रम्योर्जितशासनः शब्दातिगः सप्तसः शिशिरः सर्वरीकरः अक्रूरः पेशलो दक्षो दक्षिणः शमिणावरः विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृतिः पुण्यो दुःस्वप्ननाशनः वीरहारक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तरूपोऽनन्तश्री जितमन्युर्भयापः चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः अनादिर्भूर्भुवः लक्ष्मी सुवीरोरुचिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयो धाता पुष्पहासः प्रजागरः ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवःपणः प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः भूर्भुवस्वस्तरुस्तारः सविता प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुव्यज्ञसाधनः यज्ञान्तकृत्यज्ञगुह्य मन्नमन्नादेव च आत्मयोनि स्वयं जातो वैखानः सामगायनः देवकी नन्दनः स्रष्टा क्षितीशः पापनाशनः शङ्खभृन्नन्दकी चक्री चाङ्गधन्वा गदाधरः रथाङ्गपाणिचक्षोभ्य सर्वप्रहरणायुधः ॐ सर्वप्रहरणायुध ॐ नमः इति इतीदं कीर्तनीयस्य केशवस्य महात्मनः नाम्नां सहस्रं दिव्यानाम् अशेषेण प्रकीर्तितं य इदं शृणुयान्नित्यं यश्चापि परिकीर्तये नाशुभं प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः वेदान्तगोब्राह्मणस्य क्षत्रियो विजयी भवे वैश्योधनसमृद्धस्य शूद्रः सुखमवाप्नुया धर्मार्थी प्राप्नुयात् धर्मम् अर्थार्थी चार्थमाप्नुयात् कामान् अवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजां भक्तिमान्यः सदोत्थाय शुचिस्तत्कृतमानसः सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तये यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति भवत्यरोगोद्युत्तिमान् बलरूपगुणान्वितः रोगातो मुच्यते रोगात् बद्धो मुच्येत बन्धना भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेवभक्तानाम् अशुभं विद्यते क्वचित् जन्म मृत्युचरा व्याधि भयं नैवोपजायते इमं स्तवमधीयान श्रद्धा भक्ति समन्वितः युच्येतात्म सुखकान्ति श्रीधृति स्मृतिकीर्तिभिः न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे द्योतचन्द्रार्कनक्षत्रा हंदिशो भूर्महो दधिः वासुदेवस्य वीर्येण विद्रुतानि महात्मनः ससुरासुरगन्धर्वं सयक्षोरगराक्षसं जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः वासुदेवात्मकान्याहु क्षेत्रं क्षेत्रज्ञ एव च सर्वागमानामाचारः प्रथमं परिकल्पते आचारः प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयः पितरो देवा महाभूतानि धातवः जंगमा जंगमं चेदं जगन्नारायणोद्भवं योगो ज्ञानं तथा सांख्यं विद्या शिल्पादि कर्म च वेदाः शास्त्राणि विज्ञानं मेतत् सर्वं जनार्दना एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः त्रीन्लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः इमं स्तवं भगवतो विष्णुर्व्यासेन कीर्तितं पठेद्य इच्छेत् पुरुषः श्रेयः प्राप्तुं सुखानि च विश्वेश्वरमजं देवं जगतः प्रभवाप्ययं भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् नते यान्ति पराभवम् वनमाली गदिशार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः नमः कमलनाभाय नमस्ते जलशायिने नमस्ते केशवानन्द वासुदेव नमोऽस्तुते वासनाद्वासुदेवस्य वासितं भुवनत्रयं सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तुते नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगत्पिताय कृष्णाय गोविन्दाय नमो नमः आकाशात् पतितं तोयं यथा गच्छति सागरं सर्वदेव नमस्कार केशवं प्रतिगच्छति श्री केशवं प्रतिगच्छति ॐ नमः इति